ओम नमो भगवते वासुदेवाय। अथ द्वितीयोऽध्यायः। श्री शुक उवाच, एवं ते भगवद्दूता यमदूताभिभाषितम् उपधार्याथ तान् राजन् प्रत्याहुर्नयकोविदाः। विष्णुदूता ऊचुः, अहो कष्टम् धर्मदृशामधर्म स्पृशते सभाम्। यत्रा दण्ड्येष्व पापेषु दण्डो यैर्ध्रियते वृथा। प्रजानाम् पितरो ये च शास्तारः साधवः समाः। यदि स्यात्तेषु वैषम्यम् कं यान्ति शरणम् प्रजाः। यद्यदाचरति श्रेया नितरस्तत्तदीहते। स यत्प्रमाणम् कुरुते लोकस्तदनुवर्तते। यस्याङ्के शिर आधाय लोकः स्वपिति निर्वृतः। स्वयम् धर्ममधर्मम् वा न हि वेद यथा पशुः। स कथम् न्यर्पितात्मानम् कृतमैत्रमचेतनम्। विश्रम्भणीयो भूतानाम् सगृणो द्रोग्धुमर्हति। अयम् हि कृतनिर्वेशो जन्मकोट्यम् हसामपि। यद्व्याजहार विवशो नाम स्वस्त्ययनम् हरेः। एतेनैव यघोनोऽस्य कृतम् स्यादघनिष्कृतम्। यदा नारायणायेति जगादचतुरक्षरम्। स्तेन सुरापो मित्रधृग् ब्रह्मः गुरुतल्पगः। स्त्रीराजपितृगोहन्ता ये च पातकिनोपरे। सर्वेषामप्यघवतामिदमेव सुनिष्कृतम्। नाम व्याहरणम् विष्णोर्यतस्तद्विषयामतिः। न निष्कृतैरुदितैर्ब्रह्मवादिभिस्तथा विशुध्यत्यघवान् व्रतादिभिः। यथा हरेर्नामपदैरुदारितैस्तदुत्तमश्लोकगुणोपलम्भकम्। नैकान्तिकम् तद्धि कृतेऽपि निष्कृते मनः पुनर्धावति चेद् सत्पथे। तत्कर्म निर्हारमभीप्सताम् हरेर्गुणानुवादः खलु सत्त्वभावनः। अथैनम् मापनयत कृताशेषाघनिष्कृतम्। यदसौ भगवन्नाम म्रियमाणः समग्रहीत्। साङ्केत्यम् पारिहास्यम् वा शोभम् हेलनमेव वा। वैकुण्ठनामग्रहणमशेषाघहरम् विदुः। पतितस्खलितो भग्नः सन्तष्टस्तप्त आहतः। हरिरित्यवशेनाः पुमान्नार्हति यातनाम्। गुरूणाम् च लघूनाम् च गुरूणि च लघूनि च। प्रायश्चित्तानि पापानाम् ज्ञात्वोक्तानि महर्षिभिः। तैस्तान्यघानि पूयन्ते तपोदानजपादिभिः। नाधर्मजम् तद्धृदयम् तदपि शाङ्घ्रिसेवया। अज्ञानादथवा ज्ञानादुत्तमश्लोकनाम यत् सङ्कीर्तितमघम् पुंसो दहे देधो यथा नलः। यथा गतम् वीर्यतममुपयुक्तम् यदृच्छया। अजानतोऽप्यात्मगुणम् कुर्यान्मन्त्रोऽप्युदाहृतः। श्रीशुक उवाच, त एवम् सुविनिर्णीय धर्मम् भागवतम् नृप। तम् याम्यपाशान् निर्मुच्य विप्रमृत्योरमुमुचन् इति प्रत्युदितायाम्या दूतायात्वा यमान्तिके। यमराज्ञे यथा सर्वमाचक्षुररिन्दम। द्विजपाशाद् विनिर्मुक्तो गतभिः प्रकृतिम् गतः। भवन्दे शिरसा विष्णो किङ्करान् दर्शनोत्सवः। तम् विवक्षुमभिप्रेत्य महापुरुषकिङ्कराः। सहसा पश्यतस्तस्य तत्रान्तर्दधिरे नघ। अजामिलोप्यथा कर्ण्य दूतानाम् यमकृष्णयोः। धर्मम् भागवतम् शुद्धम् त्रैविद्यम् च गुणाश्रयम्। भक्तिमान् भगवत्याशु माहात्म्यश्रवणाद्धरेः। अनुतापो महानासीत् स्मरतो शुभमात्मनः। अहो मे परमम् कष्टमभूद विजितात्मनः। येन विप्लावितम् ब्रह्म विशल्याम् जायतात्मना। धिङ्माम् विगर्हितम् सद्भिर्दुष्कृतम् कुलकज्जलम्। हित्वा बालाम् सतीम् योऽहम् सुरापामसतीमगाम्। वृद्धावनाथौ पितरौ नान्यबन्धू तपस्विनौ। अहो मयाधुना त्यक्तावकृतज्ञेन नीचवत्। सोऽहम् व्यक्तम् पतिष्यामि नरके भृशदारुणे। धर्मज्ञाः कामिनो यत्र विन्दन्ति यमयातनाः। किमिदम् स्वप्नाहोऽस्वित् साक्षात् दृष्टमिहाद्भुतम्। क्व याता अद्यते ये माम् व्यकर्षन् पाशपाणयः। अथ ते क्व गता सिद्धाश्चत्वारश्चारुदर्शनाः। व्यमोचयन्नीयमानम् बद्ध्वा पाशैरथो भुवः। अथापि मे दुर्भगस्य विभुतोत्तमदर्शने भवितव्यम् मङ्गलेन येनात्मा मे प्रसीदति। अन्यथा म्रियमाणस्य नाशुचेर्वृषलीपतेः। वैकुण्ठनामग्रहणम् जिह्वा वक्तुमिहार्हति। क्व चाहम् कितवः पापो ब्रह्मग्नो निरपत्रपः। क्व च नारायणेत्येतद्भगवन्नाम मङ्गलम्। सोऽहम् तथा यतिष्यामि यतचित्तेन्द्रियानिलः। यथा न भूय आत्मानमन्धे तमसि मज्जये। विमुच्यतमिमम् बन्धमविद्याकामकर्मजम्। सर्वभूतसुरिच्छान्तो मैत्रः करुण आत्मवान्। मोचये ग्रस्तमात्मानम् योषिन्मय्यात्ममायया। विक्रीडितो यय इवाहम् क्रीडामृग इवाधमः। ममाहमिति देहादौ हित्वा मिथ्यार्थ धीर्मतिम् धास्ये मनो भगवति शुद्धम् तत्कीर्तनादिभिः। श्रीशुक उवाच इति जात सुनिर्वेदः क्षणसङ्गेन साधुषु गङ्गाद्वारमुपेयाय मुक्त सर्वानुबन्धनः स तस्मिन् देवसदन आसीनो योगमाश्रितः प्रत्यारितेन्द्रियग्रामो युयोजमन आत्मनि ततो गुणेभ्य आत्मानम् वियुज्यात्मसमाधिना युयुजे भगवद्धाम्नि ब्रह्मण्यनुभवात्मनि यर्युपार्तधीस्तस्मिन्नद्राक्षीत् पुरुषान् पुरः उपलभ्योपलब्धान् प्राग्ववन्दे शिरसा द्विजः हित्वा कलेवरम् तीर्थे गङ्गायाम् दर्शनादनु सद्यः स्वरूपम् जगृहे भगवत्पार्श्ववर्तिनाम् साकम् विहाय सा विप्रो महापुरुष किङ्करैः हैमम् विमानमारुह्य ययौ यत्र श्रियः पतिः। एवम् स विप्लावित सर्वधर्मादास्याः पतिः पतितो गर्यकर्मणा निपात्यमानो निरये हतव्रतः सद्यो विमुक्तो भगवन्नाम गृह्णन् नातः परम् कर्म निबन्धकृन्तनम् मुक्षताम् तीर्थपदानुकीर्तनात् न यत् पुनः कर्म सुसज्जते मनो रजस्तमोऽभ्याम् करिलम् ततोऽन्यथा य एवम् परमम् गुह्यमितिहासमघापहम् शृणुयाच्छ्रद्धया युक्तो यश्च भक्त्यानुकीर्तयेत्। न वै स नरकम् याति नेक्षितो यमकिङ्करैः यद्यप्यमङ्गलो मर्त्यो विष्णुलोके महीयते म्रियमाणो हरेर्नाम गृणन् पुत्रोपचारितम् अजामिलोऽप्यगाद्धाम किम् पुनः श्रद्धया गृणन्। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् षष्ठस्कन्धे जामिलोपाख्याने द्वितीयोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।